दिनचर्या।
सुदिनं प्रिया बाला।
सुदिनं हरि।
उपविशत। अधुना यूयं किं कर्तुम् इच्छथ?
वयम् आलापं कर्तुम् इच्छामः।
अस्तु, अद्य तदेव भवतु। दिलीप, त्वं वद, त्वं प्रतिदिनं किं करोषि?
अहं प्रातः 5 वादने उत्तिष्ठामि, मातरं नमामि, दन्तधावनं करोमि, शीतलं जलं पिबामि, तत्परं बहिर्भ्रमणं करोमि।
तत्परं किं करोषि?
स्नानात् परं प्रातराशं करोमि।
गायत्री, त्वं मध्याह्नभोजनं कदा करोषि?
अहं 1:30 मध्याह्नभोजनं करोमि। आर्ये, विद्यालयस्य मध्यावकाशे भवती खादति?
आम्, अहम् अल्पाहारगृहे 12:00 स्वल्पाहारं करोमि। मोहन, त्वम् अपराह्णे 5:15 केन खेलसि?
अहं कदाचित् फालकया, कदाचित् पत्कन्दुकेन, शिक्यकन्दुकेन वा खेलामि।
सायंकाले के प्रार्थनां कुर्वन्ति?
अहम् आर्ये,
वयं सर्वे प्रार्थनां कुर्मः।
कः रात्रौ 10 वादनात् परं स्वपिति?
नहि आर्ये, वयं सर्वे 10 वादनात् पूर्वं स्वपिमः।
आर्ये, भवती रविवारे विद्यालयं न आगच्छति, तदा भवती गृहे किं करोति?
रविवारे अहं किञ्चित् विलम्बेन उत्तिष्ठामि। तस्मिन् दिने अहं गृहं सम्यक् परिष्करोमि, वस्त्राणि प्रक्षालयामि, क्षीणवस्त्राणि सीव्यामि, पूजागृहं सम्यक् शोभयामि, विशेषभोजनं च रन्धयामि।
आर्ये, भवत्याः कोऽपि व्यासङ्गः नास्ति?
अस्ति, अहं गायामि, वादयामि, चित्रमपि अङ्कयामि।
भवती रविवारे दूरदर्शने चलचित्रं न पश्यति?
आम्, केवलं शोभनं चलचित्रं पश्यामि। समयः जातः, आगामिवारे यूयं स्वस्वरविवारचर्यां लिखित्वा आनयत। पुनर्दर्शनाय।
पुनर्दर्शनाय आर्ये, धन्यवादाः।